अतः देव्यापराधक्षमापनस्तोत्रम् न मन्त्रं न यन्त्रं तदपि च न जाने स्तुतिमहो न चावनं ध्यानं तदपि च न जाने स्तुतिकथा न जाने मुद्रास्ते तदपि च न जाने विलपनां परं जाने मातस्त्वदनुसरणं क्लेशहरणं विधेरज्ञानेन प्रवीणविरकेन रसतया विधेयाशक्यत्वत् तव चरण्योर्याच्युतिरभूत् तदेतक्षं ताभ्यां जननि सकलोदारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाप्ता न भवति पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरला परं तेषां मध्ये विरला तरलोऽहं तपसुता मदीयो यं त्याग समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति जगन्मातर्मातस्तव शरणं सेवा न रचिता न वा दत्तं देवि द्रविणमपि भूयस्तव मया तथापि त्वं स्नेहं मयि निरूपमं यत् प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न पावति परित्यक्तदेव विविधविधसेवा कुलतया मया पञ्चशीतिरधिकमपनीते तु वयसि इदानीं चैन्मातस्तव यदि कृपा नापि भविता निरालम्बो लम्बोदर्जननीं कामयामि शरण्यां श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातङ्को रङ्को विहरति चिरङ्कोति कनके सभापाणि कर्णे विशति मनुवाणि फलामिताम् जनः को जानीते जननि जननीयां जापविदौ चिताभस्मलेपो करलमशनां दिक्पतादरौ चटाधारिकण्ठे भुजगपति हरि पशुपति कपालीभूतेशो भजति जगदीशाय कपदवीं पपानि त्वपानि ग्रहण परिपाति फलमिदम् न मोक्षस्य काङ्क्षा भवविभावं चापि च न मे न विज्ञानापेक्षा ससिमुखि सुखे चापि न पुना अतस्त्वं सम्याचे जननि जननां यातु मम वे मृतानि रुद्राणि शिव शिव भवानि ते जपतः नारादितासि विधिना विविधोपचारकैर्किं रुक्षचिन्तनपर्यन्ता कृतं भक्षुभिः शमेतमेव यदि किञ्चन माया नाते दत्से कृपामुचितमम्बापरं तवैव आपत्सु मग्ना स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशी नैच तत्त्वं मम भावगीता क्षुधातृषार्ता जननीं स्मरन्ति जगदम्ब विचित्रमात्रकीं परिपूर्णा करुणास्ति चिन्मयी अपराधपरां परापरं न किमाता सुपेक्षते सुतं मत्सा महापातकी नास्ति पापाग्नि त्वत्समानी एवं यत्वा महादेवी यतः योग्यं ततः कुरु ॐ